इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः गणेश हेगडे। अथ वार्ताः। प्रधानमन्त्री श्रीनरेन्द्रमोदी स्वस्य फिजीदेशेन समकक्षेन सिटीवेनी राबुका इत्यनेन सह अद्य दिल्लीनगरे वार्तां करिष्यति। फिजी प्रधानमन्त्री त्रिदिवसीय यात्रायां ह्यः नवदिल्लीं प्राप्तः। पूर्वोत्तरक्षेत्रस्य शिक्षाराज्यमन्त्री सुकान्त मजुमदारेण विमानस्थानके श्रीरबुकायाः स्वागतं कृतम्। तेन सह तस्य पत्नी सुलुएती राबुका अपि यात्रायां वर्तते। प्रतिनिधिमण्डले स्वास्थ्य चिकित्सा सेवामन्त्री रातू अटानियो लाला बालाऊ वरिष्ठाधिकारिणश्च सन्ति। केन्द्रीयमन्त्री जेपी नड्डा ह्यः सायम् अतिथिगणमान्यजनैः सह वार्तां कृतवान्। विदेशमन्त्रालयेन विज्ञप्तौ उक्तं यत् प्रधानमन्त्रिणः रबुका इत्यस्य वर्तमान अधिकारावधौ भारतस्य प्रथमा यात्रा वर्तते। अस्मिन् यात्रावधौ फिजी प्रधानमन्त्री राष्ट्रपति द्रौपदी मुर्मू वर्यया सह अपि मेलिष्यति। प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्यारभ्य गुजरातस्य द्विदिवसीय यात्रायां भविष्यति। अद्य सायंकाले अहमदाबाद नगरे श्रीमोदी 400+5,000 कोटिरूप्यकाणां बहुविध विकास परियोजनानां उद्घाटनं करिष्यति। प्रधानमन्त्री अस्मिन् अवसरे जनसमूहमपि सम्बोधयिष्यति। स्वस्य यात्रायाः द्वितीयदिने श्रीमोदी श्वः प्रातः अहमदाबादस्य हंसलपुरे हाइब्रिड बैटरी इलेक्ट्रोड इत्यस्य स्थानीयकृतस्य उत्पादनस्य उद्घाटनं करिष्यति। अथ 100 देशेभ्यः बैटरी इलेक्ट्रिक वाहन निर्यातस्य कृते ध्वजप्रदर्शनञ्च करिष्यति। रक्षामन्त्री राजनाथसिंहः अद्य अवदत् यत् भारतं प्रथम मानव अंतरिक्ष यान अभियानस्य गगनयानस्य कृते पूर्णतया सज्जः अस्ति। सः प्रावोचत् यदेतद् न केवलं प्रौद्योगिकीय उपलब्धिः अपितु आत्मनिर्भर भारतस्य यात्रायाः नूतनः अध्यायः अस्ति। रक्षामन्त्री नवदिल्ल्यां गगनयान अभियानस्य कृते चितारां यात्रिणां ग्रुप कैप्टन शुभांशु शुक्ला, प्रशांत बालकृष्णन नायर, अजित कृष्णन, अंगद प्रतापः इत्येतेषां सम्मान समारोहं सम्बोधयन् एतत् उक्तवान्।
हमारा कंट्रीब्यूशन केवल स्पेस में उपग्रह भेजने तक सीमित नहीं है। आज भारत चंद्रमा से लेकर मंगल ग्रह तक अपनी उपस्थिति दर्ज करा चुका है। आज भारत गगनयान जैसे मिशंस के लिए भी पूरी तरह तैयार है। क्यों मैं इसे केवल तकनीकी उपलब्धि के रूप में नहीं देखता, बल्कि आत्मनिर्भर भारत का नया अध्याय है, जहां हम विश्व की बड़ी स्पेस पावर्स के बीच खड़े हो रहे हैं।
रशिया देशे भारतस्य राजदूतः विनय कुमारः उक्तवान् यत् भारतं यत्र यत्र उत्तम स्पर्धात्मकतां प्राप्स्यति तत्र तत्र तैलं क्रीत्वा स्वस्य राष्ट्रहितस्य रक्षणार्थम् उपायान् करिष्यति। रशिया समाचार संस्थायाः साक्षात्कारे विनय कुमारः अवदत् यत् नवदिल्लीनगरे रशिया तैलक्रयणस्य कारणेन भारतीय आयातस्य शुल्कं 25% वर्धयित्वा आहत्य 50% यावत् कृतः अमेरिकी निर्णयः अकारणः अन्यायपूर्णः अयुक्तश्च वर्तते। तेन प्रोक्तं यत् भारतस्य ऊर्जानीतेः उद्देश्यं स्वनागरिकाणां कृते विश्वसनीय आपूर्तेः सुरक्षा वर्तते। केन्द्रीयक्रीडामन्त्री मनसुख माण्डविया प्रोक्तवान् यत् देशस्य स्वातन्त्र्यस्य शताब्दी महोत्सवे 47-2000 वर्षे विश्वस्य शीर्ष 5 क्रीडाराष्ट्रेषु अन्यतमः भवितुं भारतस्य आकांक्षा वर्तते। अहमदाबादनगरे राष्ट्रमण्डल भार उत्थापन प्रतियोगितायाः उद्घाटन समारोहं सम्बोधयन् श्रीमाण्डविया अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे भारतं क्रीडाक्षेत्रे बहुधा प्रगतिम् अकरोत्। अस्मिन् क्षेत्रे बहूनि परिवर्तनानि अपि प्रवर्तन्ते। सः अवदत् प्रधानमन्त्रिणा आगामिषु 10 विश्वस्य शीर्ष 10 देशेषु भारतस्य संस्थापनस्य लक्ष्यं स्थापितम्। भारतस्य ऋतुविज्ञानविभागेन आगामि दिनद्वयं यावत् देशस्य वायव्यभागेषु महतीतः अत्यन्तप्रचण्डवृष्टेः नारङ्गवर्णीय सञ्चेतना सूचिता। विभागस्य अनुसारं गुजरात, ओडिशा, राजस्थान, उत्तराखण्ड इत्येतेषु राज्येषु पृथक् पृथक् स्थानेषु दिनद्वयम् अत्यन्तं प्रचण्डवृष्टिः भविष्यति। इति वार्ताः।